चन्द्रस्य शृणु नामानि शुभदानि महीपते, यानि श्रुत्वा नरो दुःखान् मुच्यते नात्र संशयः। सुदाकरश्च सोमश्च ग्लौरब्जः कुमुदप्रियः लोकप्रियः शुभ्रभानुः चन्द्रमा रोहिणीपतिः। शशिः मकरो राजा द्विजराजो निशाकरः आत्रेय हिन्दुः शीतांशुः ओषधीश कलानिधिः। जैवातृको रमा भ्राता क्षीरोधार्णव संभवः। नक्षत्रनायकः शम्भुशिरः शूडामणिः विभुः। तापहर्ता नभो दीपो नामान् एतानि यः पठेत् प्रत्यहं भक्तिसंयुक्तः तस्य पीडा विनश्यति। तत्तिने च पठेत्यस्तु लभेत् सर्वं समीहितं। ग्रहादीनां च सर्वेषां लभेत् चन्द्रबलं सदा।